एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। मन्त्रिपरिषदा गतदिवसीयो उपवेशेन नेपाले लोकतन्त्रस्य स्थापनायै आजीवनम् अनवरतम् च संघर्षरतस्य बीपी कोइराला इत्यस्य नाम्नि बीपी कोइराला राष्ट्रिय पुरस्कारम् स्थापयितुम् निर्णीतम् वर्तते। प्रधानमन्त्रिणो बालबाटार वर्तिनी सर्वकारीय निवासे उपविष्टेन मन्त्रिपरिषदा तेनोपवेशेन कोरोना विषाणो कारणेन प्रभावितायाः राष्ट्रिय जनगणनायाः संशोधित जनगणना कार्यक्रमोऽपि स्वीकृतोऽस्ति। उपवेशेन अन्ताराष्ट्रिय विकास संस्था नेपालस्य विद्यालय क्षेत्र सुधार कार्यक्रमस्य सञ्चालनाय प्राप्स्यमानम् पञ्चानाम् अब्जानाम् चतुःपञ्चाशतः कोटीनाम् च रूप्यकाणाम् सौविध्यपूर्णम् ऋणम् ग्रहीतुम् स्वीकृतिम् प्रदातुम् निर्णीतम् वर्तते। उपवेशेन नेपाल स्वास्थ्य क्षेत्र सुधार कार्यक्रमस्य अन्तर्गतम् अन्ताराष्ट्रिय विकास संस्थाता प्राप्स्यमानम् पञ्चानाम् अब्जानाम् चतुर्नवति कोटीनाम् च रूप्यकमितम् अतिरिक्तम् सौविध्यपूर्णम् ऋणम् स्वीकर्तुम् निर्णीतमिति सर्वकारस्य प्रवक्ता विधि मन्त्री च ज्ञानेन्द्र बहादुर कार्की अज्ञापयत्। उपवेशेन जलवायु परिवर्तन सम्बन्धे अनुकूल कार्य गठबन्धने एतस्य निर्देशक समितौ च सदस्यस्य रूपेण नेपालस्य सहभागितायै स्वीकृतिम् दातुम् निर्णीतम् वर्तते। एवमेव मन्त्रिपरिषदः उपवेशेन वर्तमानार्थिक वर्षाय विभिन्नानाम् आयोजनानाम् कृते स्थायिनीम् अस्थायिनीम् च पदसंख्याम् स्रष्टुम् सर्वकारीय सेवा दिवसस्य अवसरे चत्वारिंशते सर्वकारीय कर्मचारिभ्यः पुरस्कारम् प्रदातुम् च निर्णीतमिति प्रवक्ता मन्त्री कार्की अबोधयत्। आयव्ययस्य सम्बन्धे पत्रकारैः पृष्टम् प्रश्नम् उत्तरयन् प्रवक्ता कार्की आत्मना कतिचित् दिनपूर्वम् विपक्षिदलस्य नेत्रा केपी ओलिना सह नियमम् निलम्ब्य आयव्ययस्य पारितीकरणस्य सम्बन्धे वार्ता विहिता परम् असौ नियमस्य निलम्बनम् अस्वीकृतवान् इत्यतः श्वस्तन दिवसतः संसद अधिवेशनस्य सञ्चालनस्य पश्चात् आयव्ययक सम्बद्धो विषयः निर्णेष्यते इत्यभासत। प्रधानमन्त्री शेरवाल देववा निगदति कोरोना संक्रमणस्य निरोधन नियन्त्रणयोः कृते दक्षिण पूर्व एशिया देशानां मध्ये सहयोगः आवश्यको वर्तते। विश्व स्वास्थ्य संघटनस्य दक्षिण पूर्व एशिया राष्ट्राणां क्षेत्रीय समितेः ह्यः प्रारब्धम् चतुस्सप्ततितमम् उपवेशम् श्रव्य दृश्य प्रविधेर माध्यमेन सम्बोधयन् प्रधानमन्त्री देववा अवोचत् कोरोना महामार्या जनस्वास्थ्य सामाजिक सुरक्षायाञ्च श्रेष्ठम् प्रभावम् रोद्धुम् अन्तर्राष्ट्रिय स्तरात् क्षेत्रीय स्तराच्च सर्वेषाम् सहयोगः आवश्यकोऽस्ति। असौ नेपालस्य स्वास्थ्य प्रणाल्या अत्यावश्यक सेवा प्रदानस्य क्रमे क्षमतोधिक भार वहनीयायाम् अस्याम् अवस्थायाम् अस्य क्षेत्रस्य मानवानाम् स्वास्थ्यावस्थायाम् सुधारम् कर्तुम् उपवेशेन महत्वपूर्ण निर्णयः करिष्यते इति विश्वासम् व्यक्तवान्। उपवेशे स्वास्थ्य राज्यमन्त्री उमेश श्रेष्ठ अगदत् सर्वैः पक्षैः मिलित्वा कोरोना संक्रमणस्य निरोधनम् विधेयम्। विश्व स्वास्थ्य संघटनस्य महानिर्देशक डाक्टर टेड्रोस अधानोम घेब्रेसियस उक्तवान् कोविड उनविंशत्याः महामार्याः इदानीमपि जीवने आजीविकायां समाजे अर्थतन्त्रे च क्षतिः प्राप्यमाणा वर्तते। प्रमुख सत्तारूढस्य नेपाली कांग्रेस दलस्य संसदीय दलस्य उपवेशः अद्य वसति। संघीय संसद भवनस्य होल्से सभाकक्षे द्विवादने उपविश्यमाने उपवेशे श्वस्तन दिवसात् प्रारप्स्यमाने संघीय संसद उपवेशे दलस्य पक्षतो विधातव्यस्य पूर्वकार्यस्य अध्यादेशस्य आयव्ययस्य च विषयेषु विमृश्यते इति दलस्य सचेतक पदीया पुष्पा भूषालः अबोधयत्। संविधान क्रियान्वयनस्य क्रमे संघटितेन भाषायोगेन सर्वकारीय कार्य सञ्चालनस्य भाषायाः आधार निर्धारणेन सह नेपाल सर्वकारः परामृष्टो वर्तते। आयोगस्य अध्यक्ष डा लवदेव अवस्थी आयोगस्य परामर्शेन सहितं प्रतिवेदनं ह्यः प्रधानमन्त्रिणे शेरबहादुर देववा विधेयाय हस्तान्तरितवान्। गृहमन्त्री बालकृष्ण खाँड सप्तानाम् जनपदानाम् प्रमुख जनपदाधिकारीभ्यः सम्बद्ध जनपदेषु जल विप्लव भूस्खलन जलमग्नताभिः प्राप्ताम् क्षतिम् अजानात्। गृहमन्त्री खाँड ह्य प्रमुख जनपदाधिकारिणः दूरभाषस्य माध्यमेन जल विप्लव भूस्खलन जलमग्नताभिः प्रभावितेभ्यो नागरिकेभ्यः उपलब्ध स्रोत साधनानि अत्यधिकम् उपयुज्य उद्धाराय सहयोग प्रदानाय सुरक्षित स्थानेषु स्थानान्तरणाय च निर्दिष्टवान्। संखुवासभा जनपदस्य मादी नगरपालिकाया प्रथमवडा क्षेत्रस्थिते उमलिङ स्थाने एकस्यैव गृहस्य शरणं जनानां मृतावस्थायां प्राप्ते सम्बन्धे अनुसन्धानाय प्रहरीदलं घटनास्थलं प्राप्तमस्ति। स्थानीयस्य तेजबहादुर कार्किण परिवारस्य षड्जना ह्य मृतावस्थायां प्राप्ता इति जनपद प्रहरी कार्यालयस्य प्रमुख प्रहरी नायब उपरीक्षक लाल ध्वज सुवेदी अवदत। प्रतिवेशीभि सर्वे मृतावस्थायां प्राप्ता तदनु प्रहरिणो ज्ञापिता इति स्थानीय शिक्षक योगेन्द्र ओझा अवोचत। मृतकानां सभा पृथक पृथक स्थाने प्राप्ता इति मादी नगरपालिकाया प्रमुख विदुर कुमार लिङथेप अकथयत। घटनास्थले विद्यमानस्य संखुवासभा जनपदस्य प्रहरी नायब उपरीक्षकस्य लालध्वज सुवेदिन अनुसारेण ते जना धावयित्वा घातिता इति प्रारम्भिकानुसन्धानेन ज्ञातमस्ति। रविवासरस्य रात्रौ अविरल वृष्टेः कारणेन दूरापन्नाभ्यां जलविप्लव भूस्खलनाभ्यां देशस्य विभिन्नेषु जनपदेषु अष्टौ जना मृताः इति गृहमन्त्रालयो ज्ञापयति। गृहमन्त्रालयस्य अनुसारेण रोल्पा जनपदस्य धवंग स्थाने वर्षाणां कारणेन गृहभञ्जनात् द्वौ मकवानपुर प्युठान जाजरकोट जनपदेषु च षड् जना मृतावस्थायां प्राप्ता सन्ति। उद्धृतानां ऊनविंशतिर्जनानां मध्ये चत्वारो जना आहतावस्थायां प्राप्ता सन्ति इति गृहमन्त्रालयः सूचयति। भूस्खलनस्य कारणेन आराष्ट्रम् पञ्चदश राजमार्गाः अवरुद्धाः सन्ति। नेकपा एमाले दलस्य अध्यक्ष पूर्व प्रधानमन्त्री च केपी शर्मा ओली कथयति नेकपा एमाले दलम् राष्ट्र निर्माणस्य संकल्पवाहकानां नेतृ कार्यकर्तृणां दलमस्ति। युवसंघेन ह्यः काष्ठमण्डपे आयोजिते बृहद युवमेलने अध्यक्ष ओली देश समृद्धे एमाले दलस्य अभियाने युववर्गस्य भूमिका अत्यन्त महत्वपूर्णास्ति इत्यतः अभियानेऽस्मिन् अग्रेवर्धनाय पुनः यूनः आह्वयत्। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड कथयति राष्ट्रिय हितस्य कृते परिवर्तनस्य क्रान्त्याश्च पक्षे ध्वजस्य उत्तोलनं विधीयते। असौ नेपालस्य विभिन्नेषु दलेषु विमर्शनं विधाय एकतायाः ध्वज उत्तोलनीयः इत्यवोचत्। पाल्पा जनपदीय माओवादी केन्द्रस्य विस्तारितम् उपवेशम् जुम् श्रव्यदृश्य प्रविधेर माध्यमेन सम्बोधयन् अध्यक्ष प्रचण्ड बाबुराम भट्टराई मोहन वैद्य किरण नेत्र विक्रमचन्द विप्लव उपेन्द्र यादवैश्च सह अनुकूलम् विमर्शनम् विधीयमानमस्ति त्यतः विषयेऽस्मिन् आत्मना विश्वासो वर्तते इति अगदत्। अद्य आराष्ट्रम् कुशे अंशीति भाद्रकृष्ण पक्षस्य अमावस्या पर्व आयोज्यमानम् वर्तते। अस्य पर्वण अवसरे अद्य हिन्दू धर्मावलम्बिनः वर्षावधये देवपितृ कार्ययो कृते प्रयोज्यमानस्य कुशस्य सञ्चयम् विदधति। अद्यैव पितृदेवो भव इति वैदिक मान्यताम् अनुसरन्तो हिन्दवः स्वकीयेभ्यः पितृभ्यो मिष्ठान्न भोजनादि प्रदान पुरस्सरम् मुखावलोकनम् च विधाय तान् यथोचितम् सम्मानयन्ति। अवसरस्मिन् मातृपितृविहीना सन्ततयः पितृणाम् तृप्ति कल्याणयोः कामनया काष्ठमण्डपस्य उत्तरकोणे विद्यमानम् गोकर्णेश्वरस्य मन्दिरम् गत्वा श्राद्धपद्धतेः अनुसारेण स्वकीयान् पितृन् उद्दिश्य तर्पयन्ति। अद्यैव नेपालस्य राष्ट्रिय विभूते मोतीराम भट्टस्य 650 जन्मजयन्ती आराष्ट्रम् विविधैः साहित्यिक कार्यक्रमैः सह समायोज्यमाना वर्तते। युवकवि मोतीराम भट्ट माध्यमिक कालिक नेपाली साहित्यस्य श्रृङ्गारीय काव्यधाराया प्रवर्तक अस्ति। अनेन नेपाली साहित्यस्य श्रीवृद्धौ विविध काव्य गजल नाटकानि विरचय्य भानुभक्त रामायणम् सम्पाद्य च महत् योगदानम् विहितम् वर्तते। आराष्ट्रम् ह्यः 1097 कोरोना विषाणुना संक्रान्ता जनाः वर्धिताः सन्ति। ह्यः 10 वर्षत न्यूनवयस्कासु 30 बालबालिकासु कोरोना संक्रमणम् पुष्टिभूतमस्ति चेत् 11 विंशति वर्षाणाम् वयस्समूहस्य 90% जनेषु कोरोना संक्रमणम् पुष्टिभूतम् वर्तते। पूर्वेद्यो आराष्ट्रम् अतिरिक्ता 1047 जना कोरोना संक्रमणात् मुक्ताः सन्ति। कोरोना संक्रमणेन नेपाले ह्य अतिरिक्ताः 20 जना मृता। एतदनु आराष्ट्रम् कोरोना संक्रमणेन मृतानाम् जनानाम् समग्र संख्या 10,858 प्राप्तास्ति। ह्य आराष्ट्रम् अतिरिक्तै लक्षण 2,73,32 जनै कोरोना प्रतिरोधी टीकाकरणम् आयितम् वर्तते।